त्वा सरस्वतीं नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीय प्रवेशाय लघु सिद्धांत कौमुदीं गुरुरेव गतिः गुरुमेव भजे गुरुनैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरो मम पाहि गुरो ओं नमः पाणिनि कात्यायन पतञ्जलिभ्यः शब्दविद्या सम्प्रदाय प्रवर्तकेभ्यः नमो मुनिभ्यः नमो गुरुभ्यः श्रूयते वा अस्तु तत्र बहवः जनाः तत्र प्रतिस्पन्दं प्रेषितवन्तः तस्मिन् दिने कक्षा किञ्चित् वेगेन अभवत् इति अहं किञ्चिदिव पुनरावर्तनं कृत्वा अग्रिमपाठं प्रति गच्छामि तत्र प्रश्नात्मकरूपेण कुर्मः इदानीम् अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इत्यत्र कति पदानि सन्ति सुब्रह्मण्यन् महाभागः कति पदानि सन्ति सुब्रह्मण्यन् महोदय स्क्रीन् अहं केवलं मङ्गलश्लोकं स्थापितवान् तदनन्तरम् अहं न स्थापितवान् अहं भवान् वदतु तत्र अर्थवद् अधातुः अप्रत्ययप्रातिपदिकम् इत्यत्र कति पदानि सन्ति पदच्छेदं सूत्रस्य पदच्छेदं करोतु इति के शब्दाः तर्हि चत्वारि पदानि अभवन् किल अस्तु अग्रिमप्रश्नः अर्थवत् इत्यस्य विभक्तिः का अर्थवत् इत्यस्य इदानीम् अर्थवत् इत्यस्य समासम् अहं वदामि अर्थः अस्य अस्ति इति अर्थवत् अर्थसदृशं न यस्य अर्थः अस्ति सः अर्थवत् भवति इदानीं षष्टि भवति वा इदानीं मरुत् शब्दः अस्ति मरुत् शब्दः कस्मिन् विभक्तौ कस्यां विभक्तौ अस्ति अर्थवत् शब्दः तर्हि अर्थवत् शब्दः धीमत् शब्दः कस्यां विभक्तौ अस्ति धीः अस्य अस्ति इति धीः अस्य अस्ति इति धीमान् धीमत् शब्दः एवम् अर्थः अस्य अस्ति इति अर्थवत् इति प्रातिपदिकम् इदानीम् एकमन्यं प्रश्नं पृच्छामि अर्थवत् इति शब्दस्य लिङ्गः कः कस्मिन् लिङ्गे अस्ति अर्थवत् शब्दः पुल्लिङ्ग वा अन्यः कोऽपि वक्तुम् अर्हति वा? अर्थवत् इदानीं किम् अर्थवत् अस्ति अत्र? अर्थवदधातुरप्रत्ययप्रातिपदिकम् अस्मिन् सूत्रे किम् अर्थवत् अस्ति? प्रातिपदिकम्। तर्हि प्रातिपदिकम् इति नपुंसकलिङ्गे अस्ति, अर्थवत् इति प्रातिपदिकस्य विशेषणत्वेन अस्ति, अतः अर्थवत् अर्थवत् शब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात्। अतः अर्थवत् इति शब्दः नपुंसकलिङ्गे अस्ति। मया मरुत् शब्दः इति उक्तः सर्वे अङ्गीकृतवन्तः, मरुत् शब्दः अपि नास्ति तत्। जगत् शब्दवत् भवति। एवम् अर्थवत् इति शब्दस्वरूप अर्थवत् शब्दस्वरूपं प्रातिपदिकम् इति अर्थवत् शब्दस्य नपुंसकलिङ्गः अस्ति। एवं प्रथमावदत्ति एकवचनम् अस्ति अर्थवत्। इदानीम् अधातुः इत्यस्य लिङ्गः सुब्रह्मण्यमहोदय। षष्ठी अधातुः, अधातुः प्रथम अप्रत्ययः, अप्रत्ययः प्रातिपदिकम्। प्रातिपदिकम् इति प्रातिपदिकम् इत्यत्र विभक्तिः, प्रथमाविभक्ति एकवचनं, तत्रापि प्रथमा एव। इदानीं संज्ञासूत्रम् एतत्। संज्ञासूत्रे संज्ञिनः भवन्ति, संज्ञा अपि भवति। इदानीम् अस्मिन् सूत्रे संज्ञाका संज्ञिकः। इदानीम् अहम् अनुराधा भगिनीं पृच्छामि। अनुराधा भगिनी इतोपि नागतवती इति मन्ये। सुधा रघुरामन्, वेरि गुड्, समीचीनम्। एवम् अप्रत्ययः इति संज्ञिनः, समीचीनम्। इदानीं प्रातिपदिकम् इत्यस्य ओके, महादेवन् महोदय इदानीं सूत्रस्य विवरणं करोतु। अर्थवत् अधातुः अप्रत्ययप्रातिपदिकम् इति सूत्रस्य अर्थं किञ्चित् विवरणं करोतु, सूत्रार्थं किञ्चित् विवरणं करोतु। न धातुः, वेरि गुड्। संज्ञं स्यात्, अस्तु। इदानीम् अहम् एकं तदेव अत्र अस्ति। इदानीम् अस्मिन् स्लैड् मध्ये यः कोऽपि संशयः अस्ति वा, चत्वारि पदानि अधातुः भवेत्, अप्रत्ययः भवेत् इत्युक्ते प्रत्ययः न भवेत्, प्रत्ययान्तमपि न भवेत्, अर्थवत् शब्दस्वरूपं भवेत्। इदानीं मम प्रश्नः अस्ति, इदानीं यस्य कस्यापि अस्मिन् स्लैड् मध्ये कोऽपि सन्देहः अस्ति वा? नास्ति। इदानीं प्रश्नः पुनः अस्मिन् मध्ये एव, अस्मिन् मध्ये एव प्रश्नः। अस्माभिः अर्थवत् यदि न उच्यते तर्हि को दोषः? इदानीं दलकृत्यं पश्यामः। इत्युक्ते अधातुः अप्रत्ययः प्रातिपदिकम् इत्येव वदामः, अर्थवत् अर्थवत् इति न वदामः। तर्हि को कुत्र दोषः भवति, कः दोषः भवति? इदानीमहं शारदा गोपालकृष्णन्, प्रश्नः एवमस्ति अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इति सूत्रे अर्थवत् ग्रहणस्य प्रयोजनं किम्? इफ् यू डोंट् टेल् अर्थवत् कः दोषः स्यात्? इदानीम् अर्थवत् इत्युक्ते किम्? अर्थवत् शब्दस्वरूपम्। इदानीं राम इति प्रातिपदिकं स्वीकुर्मः। राम इति प्रातिपदिकस्वीकारेण अस्माकं मनसि प्रायः प्रसिद्ध दशरथपुत्रः रामः मनसि आगच्छति, ओ राम इति। अन्यथा अस्माकं सुहृत् कस्यचित् परिचितः यः कोऽपि भवति राम इति, तस्य नाम मनसि आगच्छति राम इति। सत्यम् एवं भवति। इदानीम् अर्थवत् इति न उच्यते चेत् को दोषः? अस्मिन् सूत्रे अर्थवत् इति न उच्यते, अधातुः अप्रत्ययः प्रातिपदिकम् इत्येव उच्यते चेत् को दोषः? न अवगतम्। अस्तु, सुजाता भगिनी, इदानीं मम प्रश्नः, महोदय महोदय वदतु। इदानीं अस्तु, किञ्चित् स्पर्शं कृतवान् भवान् अत्र, तद् प्रायः किञ्चित् मया सम्यक् न उक्तम् इति भाति। डित्थडपित्तादयः अस्य सूत्रस्य उदाहरणम्। इदानीं डित्थ इति अस्मिन् इदानीन्तन कलियुगे डित्थडपित्तादयः न भवन्ति, अतः पीटर् जान् इति स्वीकुर्मः। पीटर् जान् इत्यादयः, तेषाम् अर्थः अस्ति वा? पीटर् इति इत्युक्ते योगात्मक अर्थः नास्ति, परन्तु पीटर् इत्युक्ते यदि भवान् पूर्वं पीटर् महोदयं जानाति चेत्, पीटर् इति यदा उच्यते चेत् भवान् मनसि पीटर् महोदयस्य चित्रमागच्छति, एषः एव पीटर् महोदयः, अस्यैव उल्लेखः इदानीं क्रियते इति। अतः इदानीम् अस्य सूत्रस्य उदाहरणं पीटर् जान् इत्यादयः, यस्य यौगिकरीत्या व्युत्पत्तिः नास्ति। पीटर् इत्यस्य किमपि यौगिकरीत्या प्रकृतिप्रत्ययविभागरूपेण अस्य अर्थः निष्पादयितुं न शक्यते। इदानीं रामः इत्यत्र रमन्ते योगिनः यस्मिन् इति रामः इति अर्थः निष्पादयितुं शक्यते। नारदः इत्यस्य नारं ददाति इति नारदः, नारं नाम ज्ञानम् इत्यादयः, तत्र प्रकृतिप्रत्ययविभागेन नारद इति शब्दः एवम् अस्माभिः व्युत्पादयितुं शक्यते। एतादृशशब्दाः यौगिकरीत्या अर्थं जनयन्ति। अत्र अस्य सूत्रस्य उदाहरणं यौगिकरीत्या ये अर्थं निष्पादयन्ति तेषाम् अत्र उदाहरणं न भवति। तत्र पीटर् जान् पीटर् इत्यस्य यौगिकरीत्या प्रकृतिप्रत्ययविभागः न कर्तुं शक्यते। पीटर् इति यस्य कस्यचित् नाम, तस्य प्रत्ययः प्रकृतिः, तत्र किमपि कृदन्त धातुनिष्पन्नः वा इत्यादि अस्माभिः विभागं कर्तुं न शक्यते। इदानीं मम प्रश्नः सः नासीत्, मम प्रश्नः एवम् आसीत्, अर्थवत् इति स्वीकारः अस्मिन् सूत्रे यदि न क्रियते तर्हि को दोषः? इदानीं राम इत्येव स्वीकुर्मः। इदानीं राम इत्यस्य, नो चेत् राम इत्यस्य वर्णाः भवन्ति रकारोत्तर अकारः, मकारोत्तर आकारः। यदि अर्थवत् इति न स्वीक्रियते चेत् अर्थवान कहा भवति शब्दः एव अर्थवान भवति वर्ण अस्माकं दृष्ट्या शब्दः एव अर्थवान भवति न तु वर्णः यदि वर्ण इदं शब्दशास्त्रं शब्दः एव अर्थवान भवति अतः अर्थवत् शब्दस्वरूपं अर्थवत् इत्युक्ते कः अर्थवत् इति स्वीकारे शब्दस्वरूपमेव अस्माभिः अध्याक्रियते अतः अर्थवत् इति स्वीकारेण अर्थवत् शब्दस्वरूपं प्रातिपदिकम् इति भवति अर्थवत् यदि न स्वीक्रियते चेत् प्रत्येकवर्णस्य प्रातिपदिकसंज्ञा स्यात् प्रत्येकवर्णस्य राम इत्यत्र नो चेत् पीटर् इत्यत्र तकारोत्र इकारः पकारस्य प्रातिपदिकसंज्ञा इकारस्य प्रातिपदिकसंज्ञा टिकारस्य टकारस्य प्रातिपदिकसंज्ञा इकारस्य पीटर् सर्वस्य सर्ववर्णस्य प्रातिपदिकसंज्ञा स्यात् यदि प्रातिपदिकसंज्ञा वर्णानां भवति चेत् को दोषः तर्हि वर्णस्य सुप्रत्ययादयः भवन्ति तत्र तत्र पु इत्यनन्तरं सुप्रत्ययः भवति तदनन्तरं तकारोत्तर सुप्रत्ययः भवति अकारोत्तर सुप्रत्ययः भवति एवं पीटर् इति समग्रशब्दस्य अनन्तरं सुप्रत्ययः न भवति एवं दोषः स्यात् यदि अर्थवत् इति न उच्यते चेत् इदानीम् अवगतं वा प्रत्येकवर्णस्य प्रातिपदिकसंज्ञा स्यात् तद्वारणार्थम् अर्थवत् इति अत्र स्वीकृतम् इदानीं धातुः न स्यात् इत्यत्र अहन् इति उदाहरणं दत्तम् मया अहन् इति शब्दः हनुधातोः लङ्लकाररूपं प्रथमपुरुषरूपं मध्यमपुरुषरूपम् अपि अस्ति अत्र यदि अहन् इति लङ्लकारधातुः स्वीक्रियते तर्हि नलोपप्रातिपदिकान्तस्य इति अन्यत् सूत्रमस्ति तत्र अहन् इत्यत्र नकारस्य लोपः स्यात् तेन अह इत्यस्य धात्व अवयवस्यापि प्रातिपदिकसंज्ञा स्यात् धातूनां धातु अवयवानाम् इत्यादीनां प्रातिपदिकसंज्ञा स्यात् एवम् अधातुः इति आवश्यकम् धातूनां प्रातिपदिकसंज्ञा मा भूत् इति कारणार्थम् अधातुः इति आवश्यकम् अप्रत्ययः इत्यपि अप्रत्ययः दातुं प्रत्ययम् अप्रत्ययः इदानीं सुप्रत्ययः अस्ति तिप्रत्ययः अस्ति कृत्प्रत्ययः अस्ति सर्वेषां प्रत्ययानामपि यदि प्रातिपदिकसंज्ञा स्यात् प्रत्ययस्योपरि प्रत्ययः अनवस्थाप्रसङ्गः See, suppose supratyaya is also becomes a pratyaya. Supratyaya gets a supratyaya. And supratyaya, those two will be, get another supratyaya. Evam anavastha prasangaha. Ataha asmabhihi apratyayaha iti uktam. Tatra pratyayantam varjayitva iti uktam. Pratyayantam ityukte यदि प्रत्ययान्तशब्दाः भवन्ति अनेन सूत्रेण न भवति प्रत्ययान्तम् इति उच्यते इदानीं रामेषु इति अस्ति रामेषु हरिषु करोषि करोति इत्यादयः शब्दाः सन्ति एते प्रत्ययान्तशब्दाः इदानीं प्रत्ययाः प्रातिपदिकं राम हरि इत्यादि प्रातिपदिकं तस्य प्रत्ययान्तशब्दाः ते प्रत्ययाः प्रत्ययानां योगेन ते हरि रामेषु हरिषु इत्यादि शब्दाः अभवन् तेषामपि प्रातिपदिकसंज्ञा न स्यात् पुनः यदि प्रत्ययान्तशब्दानां पुनः प्रातिपदिक संज्ञा भवति तर्हि पुनः अनवस्था दोष तर्हि रामासु इति भवति तर्हि रामेषु इति भवति रामेषु इत्यनन्तरं पुनः सुप्रत्ययः पुनः रामेषु इत्या रामेषुः रामेषु रामेशवः इति उकारान्तशब्दः अनन्तरं रामेशवः इति शब्दः अस्ति तत् पुनः अकारान्तशब्दः रामेशवः रामेशवौ रामेशवाः अकारान्तशब्दः अनन्तरं रामेशवाः इति एकम् एवम् अनवस्था प्रसङ्गः अतः प्रत्ययान्तम् अपि न भवेत् तादृशशब्दस्वरूपम् अर्थवत्शब्दस्वरूपं प्रातिपदिकसंज्ञं भवति अस्य सूत्रस्य उदाहरणं रामः भवितुमर्हति वा इति प्रश्नः राम इति प्रातिपदिकम् अस्य सूत्रस्य उदाहरणं भवितुमर्हति वा इति प्रश्नः इदानीम् अहं कं पृच्छामि एकनिमिषः गीतापद्मनाभन् गीतापद्मनाभन् ओके अनुराधा भगिनी हा राम राम इति शब्दः अर्थवत् अधातुः अप्रत्ययप्रातिपदिकम् इति सूत्रस्य उदाहरणं भवितुमर्हति वा यदि नार्हति किमर्थं भवितुमर्हति अर्हति कथं भवितुमर्हति परं न नास्ति अस्य सूत्रस्य उदाहरणार्थं भवितुमर्हति इति भवती वदति इदानीम् अस्तु महादेवन् महोदय उत्तरं समीचीनं वा यदि असमीचीनं तर्हि किम् उत्तरम् महादेवन् महोदय श्रूयते वा महादेवन् महोदय श्रूयते वा मम कनेक्षन् गतं मध्ये तत्र पवर् गतम् इदानीं वदतु अहं न श्रुतवान् भवतः సమీచీనమేవ. రామ్ అస్య సూత్రస్య ఉదాహరణం భవితుం అర్హతి వా? మా ప్రశ్నం సమ్యక్ రీత్యా శృణోతు. అర్థవద్ అధాతుర్ అప్రత్యయ ప్రాతిపదికం ఇత్యస్య సూత్రస్య రామ ఇతి రామ ఇతి శబ్ద ప్రాతిపదికం భవితుం అర్హతి వా ఇది భవాన్ అపి ఏమే వదతి? సద్ అత్ర కహ ఆగతవాన్? సదగోపన్ మహోదయ ఆగతవాన్. అస్తు శారదా గోపాలకృష్ణన్. అర్హతి అర్థవత్ అపి భవతి. సుజాత భగిని అస్తు అహమే తర్హి కించిత్ వివరణం దాస్యామి. అస్య సూత్రస్య ఉదాహరణం డిట్టడపిట్టాదయః పీటర్ జాన్ ఇత్యాదయః శబ్దాః ఏవ. కిమర్థం ఇత్యుక్తే రామ ఇతి శబ్దః శబ్దస్య ఉత్పత్తిః రమంతే యోగినః యస్మిన్ ఇతి రామః. రమంతే యోగినః యస్మిన్ ఇతి రామః ఇతి అస్తి కిల. తర్హి రమ దాతోః కిం భవతి? రమ దాతోః ఘై ప్రత్యయః అస్తి. రమ దాతోః ఘై ప్రత్యయ అస్తి కృతే ఏవ రామ ఇతి శబ్దస్య నిష్పత్తిః. నిష్పత్తి తర్హి రామ ఇతి శబ్దః ప్రత్యయాంతః సంపన్నః. యది ప్రత్యయాంతః శబ్దః అస్తి అత్ర కిం ఉచ్యతే? తత్ర అత్ర ధాతుం ప్రత్యయం ప్రత్యయాంతం చ వర్జయిత్వా అర్థవత్ శబ్దస్వరూపం ప్రాతిపదిక సంజ్ఞం స్యాత్ ఇది సూత్రార్థః. అతః కేవలం ప్రత్యయః న స్వీకర్తవ్యః అస్మాభిః. ప్రత్యయః ప్రత్యయాంతః అపి అస్య సూత్రస్య ఉదాహరణం న భవితుం అర్హతి. రామ ఇతి శబ్దః ప్రత్యయాంతః అస్తి. అతః ప్రత్యయాంతః ఇతి కారణేన అర్థవత్ అధాతుః అప్రత్యయః ప్రాతిపదికం ఇతి సూత్రస్య ఉదాహరణం న భవితుం అర్హతి. యతో హి ప్రత్యయాంతం ధాతుం ప్రత్యయం ప్రత్యయాంతం చ వర్జయిత్వా అర్థవత్ శబ్దస్వరూపం ప్రాతిపదిక సంజ్ఞం స్యాత్. ఇదానీం అవగతం వా? తర్హి అస్య సూత్రస్య ప్రయోజనం కిం ఇత్యేవ భవంతః పృచ్ఛంతి. అస్య సూత్రస్య ప్రయోజనం పీటర్ ఇత్యాది శబ్దానాం కృతే ఏవ. పీటర్ జాన్ ఇత్యాది శబ్దానాం కృతే యస్య యౌగికార్థః నాస్తి. ఇదానీం అహం అత్రేవ మయా ఉక్తం తత్ర శాకటాయనః ఇతి ఏకః ప్రసిద్ధః వైయాకరణః. సః పాణినేః ప్రాక్ ఆసీత్. తస్య మతం కిం ఇత్యుక్తే సర్వం ధాతుజం ఇతి సః ఉక్తవాన్. యస్ లోకే యస్ యే శబ్దాః యత్ సంతి తే సర్వే ధాతుతః ఏవ నిష్పన్నాః ఇతి తస్య మతం. సయేవ మతం తత్ర వ్యుత్పత్తిపక్షః ఇతి ఉచ్యతే. వ్యుత్పత్తిపక్షః ఇదానీం శబ్దానాం విషయే శబ్దానాం వ్యుత్పత్తి విషయే విదుషాం మతద్వయం అస్తి. వ్యుత్పత్తిపక్షః అవ్యుత్పత్తిపక్షః. వ్యుత్పత్తిపక్షే యది వ్యుత్పత్తిపక్షే వ్యుత్పత్తిపక్షే నామ సర్వం ధాతుజం ఇతి స్వీక్రియతే చేత్ సర్వం ధాతుజం ఇత్యేవ వ్యుత్పత్తిపక్షః. ఇదానీం పీటర్ జాన్ ఇత్యాది శబ్దాః అపి వ్యుత్పత్తిపక్షే ఆగచ్చంతి. శాకటాయనస్య మతే డిద్ధ డపిత్త టిప్ టప్ ఇత్యాది అనుకరణీయ శబ్దాః అపి సర్వం ధాతుజం ఇది శాకటాయనస్య మతం. పరంతు పాణినిః కిం కృతవాన్? సః అవ్యుత్పత్తిపక్షమపి అంగీకృతవాన్. కేచన శబ్దాః సర్వే పాణిని మతం ఏవం అస్తి సర్వే శబ్దాః ధాతుజాః న. केचन शब्दाः अव्युत्पत्ति रूपेण इत्युक्ते साधारणतया विदाउट एनी रीजन तत्र डिद्ध डपित्तादयः सः उदाहरणं ददाति. डिद्ध इति कोऽपि अस्ति. इदानीं गुरुः किं कृतवान्, यः कोऽपि शिष्यः अस्ति आगतवान्, सः तस्य नाम न जानाति, डिद्ध इति सः स्थापयति. शिष्यस्य पिता माता नास्ति, अतः नामकरणं न कृतवान्. सः मौनी अस्ति, हस्तामलक मलक इव. तत्र शङ्कराचार्यस्य शिष्यः हस्तामलकः आसीत्, तादृशमौनी आसीत्. इदानीं मौनधारणेन सः किं कृतवान्, अस्य नाम नास्ति, डिद्ध इति स्थापयामः. इदानीं गुरुः एवं कृतवान्, एवं डिद्ध डपित्तादयः के भवन्ति, डिद्ध डपित्तादयः अव्युत्पन्नशब्दाः भवन्ति. इदानीं पाणिनिमतं किं, के लोके केचन अव्युत्पन्नशब्दाः अपि भवन्ति, अव्युत्पन्नशब्दाः अपि भवन्ति इति पाणिनिमतम्. अतः सः किं कृतवान्, अव्युत्पन्नशब्दानां कृते प्रातिदिर्घसंज्ञा आवश्यकम्, यथा यतोहि तेषामपि डित्तः डित्तौ डित्ताः डित्थं डित्तौ डित्तान् इत्यादि शब्दम् अस्माभिः करणीयम्. इदानीं पीटर् इति अस्ति, इदानीं पीटरः इति वयं स्वीकुर्मः चेत् पीटरः पीटरौ पीटराः इति अस्माभिः वक्तव्यम्. तदर्थम् तस्य प्रातिपदिकसंज्ञा आवश्यकम्. अतः यदि प्रत्ययान्तं नास्ति, प्रत्ययं नास्ति, धातुं नास्ति, अर्थवत् शब्दस्वरूपमस्ति, तर्हि अनेन सूत्रेण प्रातिपदिकसंज्ञा भवति. अतः प्रातिपदिक तत्र शब्दानां विषये मतद्वयम् अस्माभिः स्मरणीयम्. व्युत्पत्तिपक्षः अव्युत्पत्तिपक्षः, व्युत्पत्तिपक्षः शाकटायनस्य मतम्, व्युत्पत्तिपक्षः अव्युत्पत्तिपक्षः पाणिनिमतम्. सः मतद्वयमपि अङ्गीकरोति. यदि मतद्वयमपि अङ्गीकरोति तर्हि किं भवति, अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इत्यस्य उदाहरणं डित्तडपित्तादयः शब्दाः भवन्ति. रामशब्दः अस्य सूत्रस्य उदाहरणं न भवितुम् अर्हति, न भवितुम् अर्हति. इदानीं स्पष्टं वा? इदानीम् अग्रिमसूत्रं प्रति गच्छामि. कृत्तद्वितसमासाश्च. इदानीं अनुराधा भगिनी पदच्छेदं करोतु कृपया. कति पदानि सन्ति कृत्तद्वितसमासाश्च इत्यत्र? इदानीमहं पृच्छामि. अस्तु, इदानीमहमेकम् अन्यत् प्रश्नं पृच्छामि. इदानीं राजपुरुषः इति अस्ति. राजपुरुषः इत्यत्र राजपुरुषः गच्छति. राजपुरुषः इति एकं पदं वा? राजपुरुषः इत्यत्र कति शब्दाः सन्ति? अनुराधा भगिनी, राजपुरुष इस् एक भवति. अस्तु, समीचीनम्. इदानीं कृत्तद्वितसमासाश्च इत्यत्र एवमेव कृत् तद्वितसमासाः इति समस्तपदं भवति किल, तर्हि कृत् च तद्वितश्च समासाश्च इत्यत्र कृत् तद्वितसमासाः इति भवति. तर्हि अस्मिन् सूत्रे कति पदानि सन्ति? पदद्वयं. के ते? वेरि गुड्, एवमस्ति, समीचीनम्. इदानीम् अग्रिमप्रश्नः. कृत्तद्वित, अनुराधा भगिनी एव, कृत्तद्वितसमासाः इत्यत्र विभक्तिः का? वचनम बहुवचनम समीचीनम प्रथमा विभक्ति बहुवचनम इदानीम अस्य कुत्र अस्ति इदं सूत्रं अष्टाध्याय्यां द्वितीय पादे अस्ति इदानीं पूर्व सूत्रं किम् अस्ति तत्र अष्टाध्याय्यां प्रातिपदिकम् इति संज्ञाविधायकसूत्रं पूर्वसूत्रम् अस्ति पूर्वसूत्रात् अत्र प्रातिपदिकम् इति अनुवर्तते तत् अत्र अस्ति हा इदानीम् अस्य सूत्रस्य अर्थः कः इदानीम् तेषामपि पुनः प्रातिपदिकसंज्ञा विधीयते हा अस्तु अतिसमीचीनम् इदानीम् एतत् सूत्रमपि संज्ञासूत्रं वा विधिसूत्रं वा नियमसूत्रं वा अधि कीदृशसूत्रम् अस्माकं सूत्र इदानीम् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकमिति संज्ञासूत्रं कृत्तद्धितसमासाश्च इति कीदृशं सूत्रम् तर्हि संज्ञासूत्रं भवति किल हा दिस् इस् आल्सो ए संज्ञासूत्रम् एतदपि संज्ञासूत्रमेव यतोहि अनेन प्रातिपदिकसंज्ञाः स्युः इति एतदपि संज्ञासूत्रमेव सि नौ एतदपि कृत्तद्धितसमासाश्च इत्यपि संज्ञासूत्रमेव अनेन अनेन सूत्रेणापि संज्ञा विधीयते संज्ञा प्रातिपदिकसंज्ञा एव विधीयते इदानीम् अस्माभिः तत्र दृष्टं सन्धिप्रकरणे संहितायाम् इति अस्ति इदानीं यचोयवायावः इति अस्माभिः दृष्टं यचोयवायावः इत्यादि अयादि तत्र अयादि आदेशाः यचोयवायावः इत्यनेन क्रियते वान्तोयि प्रत्यये इत्यनेनापि अयादेशः क्रियते एवमेव अत्रापि प्रातिपदिकसंज्ञा एतदपि संज्ञासूत्रमेव अनेन सूत्रेणापि प्रातिपदिकसंज्ञा विधीयते केषां विधीयते इति भवत्या उत्तरं दत्तं कृदन्तानां तद्धितानां समासानां प्रातिपदिकसंज्ञा अस्मिन् सूत्रे विधीयते इदानीं प्रश्नः कृदन्तानां किमर्थं पृथक् सूत्रम् अपेक्षितम् कृत्प्रत्ययाः धातुषु विधीयते समीचीनम् पूर्वसूत्रेण नागतं पूर्वसूत्रेण तेषां विधानं न अभवत् वा अधातुः इति उक्तम् परन्तु वयं धातूनां स्वीकारः न कुर्मः इदानीं कृदन्तशब्दमेकं स्वीकुर्मः कृदन्तशब्दम् अहं वदामि कृदन्तशब्दं भव तत्र भवनम् इति अस्ति भवनम् इत्युक्ते भूधातोः द्युट् प्रत्ययः भवनम् इति भवति नो चेत् विभूतिः इति अस्ति भूतिः तिन् प्रत्ययः अस्ति तिन् प्रत्ययः तत्र धातुः कुत्र तत्र मम प्रश्नस्य अवगमनम् अभवत् वा कृदन्तानां कुतः पूर्वसूत्रेण न प्रातिपदिकसंज्ञा पुनः अत्र विशेषकृदन्तानां ग्रहणं किमर्थम् इत्येव मम प्रश्नः अतः समीचीनम् भवत्या उत्तरं दत्तं परन्तु सम्यक् न प्रतिपादितम् तत्र भवती प्रायः जानाति उत्तरं तत्र कृदन्ताः धातुषु कृत्प्रत्ययाः धातुषु विधीयन्ते धातुषु कृदन्तानां कृत् प्रत्ययानां विधान अनन्तरं कृदन्तानां का गतिः इत्युक्ते तेषां सुप्रत्ययोगः एव तेषां प्रातिपदिकसंज्ञा अपेक्षितं प्रातिपदिकसंज्ञानन्तरमेव तेषां कृत्प्रत्ययादि सुप्रत्ययादि योगः अतः किं भवति कृत्प्रत्ययाः तत्र ल्युट् वा तिन् वा तव्य वा मान आन शत्र शानच् इत्यादि प्रत्ययाः इदानीं क्रियमाणः इति अस्ति क्रियमाणः इत्यत्र कृ धातोः भावे मानप्रत्ययः तत्र शानच् प्रत्ययः अस्ति शानच् मान भवति इत्यादि कार्यं भवति एवं कृत् प्रत्ययान्तः सम्पन्नः क्रियमाणः इति पुल्लि प्रथमा विभक्तिः एकवचनमस्ति क्रियमाणः क्रियमाणौ क्रियमाणाः क्रियमाणं क्रियमाणौ क्रियमाणान् क्रियमाणेन क्रियमाणाभ्याम् एवं क्रियमाणा क्रियमाणे क्रियमाणाः इति स्त्रीलिङ्गे क्रियमाणं क्रियमाणे क्रियमाणानि इत्यादि एतादृश लिङ्ग विभक्ति वचनभेदः यदि आवश्यकं चेत् तस्य प्रातिपदिकसंज्ञा अपेक्षितम् अतः कृदन्तानां तत्र महादेवन् महोदयः उक्तवान् उत्तरमुक्तवान् कृदन्तशब्दानां प्रातिपदिकसंज्ञा यदि अपेक्षितं तेषां प्रत्ययान्तं सञ्जातं ते प्रत्ययान्तः सञ्जाताः अतः पूर्वसूत्रेण तेषाम् इष्टसिद्धिः प्रातिपदिकसंज्ञा नास्ति अतः पुनः अत्र कृत्तद्धितसमासाश्च इत्यनेन कृदन्तानां ग्रहणम् एवमेव तद्धितान्तानामपि ग्रहणम् तद्धितान्ताः प्रातिपदिकेषु युज्यन्ते इदानीं दशरथ इति शब्दः अस्तु प्रातिपदिकं तस्य अस्ति दाशरथी इति शब्दः दशरथस्य अपत्यं पुमान् दाशरथी दाशरथी इति शब्दः इकारान्तः तस्य प्रातिपदिकसंज्ञा यदि भवति चेदेव दाशरथिः दाशरथी दाशरथयः इत्यादि प्रत्ययाः भवन्ति अतः इत्यादि रूपाणि भवन्ति अतः तेषां प्रातिपदिकसंज्ञाविधानार्थं तद्धितान्तानां पुनः अत्र ग्रहणं स्वीकृतम् अग्रिमप्रश्नः समासाश्च इति अस्ति समासग्रहणं किमर्थम् समासानां प्रातिपदिकसंज्ञा इदानीं समासानां पूर्वसूत्रेण इष्टसिद्धिः भवति वा इति प्रश्नः इदानीं कं पृच्छामि एकनिमिषम् श्रीशर्मा इति कोऽपि अस्ति तद् पूर्वसूत्रेण किमर्थं मम प्रश्नः एवमस्ति राजपुरुष इति शब्दस्य अनेन सूत्रेण प्रातिपदिकसंज्ञा वा पूर्वसूत्रेण वा इति प्रश्नः पूर्वसूत्रस्य ये तत्र कण्डीशन्स् सन्ति ते सर्वे प्रायः परिहृत तत्र आगच्छन्ति इदानीं समासस्य विषये राजपुरुषमेव स्वीकुर्मः राजपुरुष इति अस्ति प्रत्ययः अस्ति वा राजपुरुष इति प्रत्ययः अस्ति वा प्रत्ययः नास्ति राजपुरुष इति शब्दः प्रातिपदिकं राजपुरुष इति शब्दः प्रत्ययः अस्ति वा हा वा प्रत्ययः नास्ति प्रत्ययान्तम् अस्ति वा राजपुरुष इत्यत्र प्रत्ययान्तं किमपि अस्ति वा नास्ति धातुः नास्ति अर्थवत् शब्दस्वरूपम् अस्ति तर्हि पूर्वसूत्रेणैव सिद्ध्यति किल अर्थवत् अधातुः अप्रत्ययप्रातिपदिकम् इत्यत्र अस्माभिः उक्तं डित्तडबित्तादयः पीटर् जान् इत्यादि उदाहरणं भवत्या दत्तं समासानाम् उदाहरणं दातुं शक्यते स्म इति भवता समासानां तत् परन्तु समस्तपदस्य प्रत्ययान्तत्वं नास्ति समस्तपदस्य इदानीम् अस्माकं समस्तपदस्य प्रत्ययान्तत्वं नास्ति अतः पूर्वसूत्रेणैव इष्टसिद्धिः किमर्थम् अत्र स्वीकृतम् इत्युक्ते अत्र तत्र उच्यते समस्तपदस्य तत्र वस्तुतः पूर्वसूत्रेणैव समासग्रहणं भवति भवितुमर्हति भवति न भवितुमर्हति परन्तु अत्र पुनः पाणिनिना अत्र समासः इति तत्र विशेष विधानं कृतं समासानां यदि प्रातिपदिकसंज्ञा भवति अनेन सूत्रेणैव भवति इति पाणिनिः वदति किमर्थं वदति चेत् सः वदति यदि इदानीं सीतायाः पतिः वाक्यं सीतायाः पतिः वनं गच्छति इति अस्ति सीतायाः पतिः वनं गच्छति इत्यत्र तत्र सीतायाः पतिः वनं गच्छति इति समग्रवाक्यस्य प्रातिपदिकसंज्ञा अर्थवत् शब्दसमूहः यदा भवति तदा सीतायाः पतिः राम वनं गच्छति इति शब्दसमूहस्य that entire see four words together we'll put a bracket tatra kamsa madhye sthapayitva supratyaha punah yojayitum shakyate va samagra vakyasya sitayaha patihi vanam gacchati gacchati tyatra supratyaha sitayaha supratyaha tadanantam lopaha ityadi karyam bhavitum bhavati tadrisha vyavastha na bhavitavyam iti yadi यदि शब्दसमूहस्य प्रातिपदिकसंज्ञा भवति चेत् समासस्यैव न तु वाक्यस्य इति सूचनार्थं पाणिनिः किं कृतवान् कृत्तद्वितसमासाश्च इति सूत्रे समासग्रहणम् अत्र कृतवान् समासग्रहणं मया अत्र कृतं किमर्थम् इत्युक्ते नियमार्थं मया किं कीदृशनियमः क्रियते नियमो नाम कः यत्र सिद्धे सति आरभ्यमाणो विधिः नियमाय भवति इति नियमः अस्ति अस्माभिः पूर्व आल्रेडी वी नो सर्टन् थिङ्ग्स् स्टिल् वी रिपीट् इट् जस्ट् टु एम्फसैज़् द रूल् तद् सिद्धे सति आरभ्यमाणो विधिः पुनः यदि आरभ्यते चेत् पूर्वसूत्रेण सिद्धे सति पुनः इदानीम् आरभ्यते तर्हि कश्चन नियमः मया ज्ञाप्यते ऐ एम् मेकिङ्ग् यू रिमेम्बर् सर्टन् रूल् इति पाणिनिः ज्ञापयति कः कः नियमः इत्युक्ते यदि शब्दसमूहस्य प्रातिपदिकसंज्ञा भवति अस्मिन् लोके तर्हि समासस्यैव न तु वाक्यस्य इति ज्ञापनार्थं पूर्वसूत्रेण न कृतवान् सः समासः इति अत्र योजितवान् इदानीम् अवगतं वा हा इदानीं केन् सम्बडि टेल् समासग्रहणं यद् यद् युष्माभिः एवं वक्तव्यं समास मम प्रश्नः एवमस्ति समासस्य प्रातिपदिकसंज्ञा केन सूत्रेण अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकमिति सूत्रेण किमर्थं न भवितुमर्हति वा यदि भवितुमर्हति तर्हि किमर्थम् अत्र स्वीकृतम् अनेन सूत्रेण किमर्थम् अत्र स्वीकृतम् इति उत्तरं यः कोऽपि तत्र दोषः अस्ति चेत् चिन्ता नास्ति कृपया वदन्तु महावीरमहोदय वदति वा ददाति समासः समासे न सः इदानीं किञ्चित् सम्यक् उक्तं, किञ्चित् मध्ये एकं वक्तव्यं, क्रमेण एवं वक्तव्यं, समासस्य पूर्वसूत्रेण इष्टसिद्धिः भवति. पूर्वसूत्रे तत्र उदाहरणं सीतायाः पतिः सीतापतिः. सीतापति इति सीतापति इत्यत्र न प्रत्ययः, सः न प्रत्ययः, न प्रत्ययान्तः, न धातुः अर्थवत् शब्दस्वरूपमस्ति. अतः अर्थवत् अधातुः अप्रत्ययप्रातिपदिकम् इत्यनेनैव प्रातिपदिकत्वसिद्धिः. परन्तु पाणिनिना कृत्तदितसमासाश्च इति सूत्रे समासग्रहणं कृतम्. समासः नाम शब्दसमूहः. यदि शब्दसमूहानां प्रातिपदिकसंज्ञा भवति चेत्, एतद्वाक्यं युष्माभिः एवमेव स्मर्तव्यं, यदि शब्दसमूहानां प्रातिपदिकसंज्ञा भवति चेत् तर्हि समासस्यैव न तु वाक्यस्य इति नियमं ज्ञापयितुम्, इन् आर्डर् टु मेक् अस् रिमेम्बर् दट् देर् इस् ए नियमा that if a group of words get a pratipadika sanya, it is only samasa and not a sentence. In order to make us remember this niyama, this rule, indirectly Panini has taken the word samasa in this sutra and not in that sutra. That is what we have told. Shabda samuha, when group of words get pratipadika sanya, it is only samasas and not a sentence. A group of words which has a meaning is also a sentence. It can be a phrase or a sentence. Sitayaha patihi ityatra laghu vakyam asti. Sitayaha patihi vanam gacchati iti purna vakyam asti. Tatra तत्रापि प्रातिपदिकसंज्ञा यदि भवति चेत् तर्हि अनवस्था प्रसङ्गः. इदानीम् उच्यताम्. Somebody wanted to tell something. उच्यताम्. मुत्तुलक्ष्मी भगिनी वा? इत्युक्ते एकतिङ् वाक्यम् इति अस्ति, तिङन्तं नास्ति किल. सीतायाः पतिः नाम आकाङ्क्षा पूर्णा नास्ति. सीतायाः पतिः किं कृतवान् इत्यादि प्रश्नः आगच्छति. सीतायाः पतिः गच्छति इति किमपि तिङन्तम् अस्माभिः योजनीयम्. अतः मया पूर्णवाक्यम् इति उक्तं. सीतायाः पतिः इत्यपि लघुवाक्यमेव. यदि शब्दसमूहानां न पूर्वसूत्रेण वाक्यं किं, यत्र कुत्रापि वाक्यं न ग्राह्यम्. यदि if a group of words can get a pratipadika sanya, it is only a samasa and not a sentence. That is what is the rule which is hinted by Panini by taking the word samasa in this sutra. Panini has got indirect ways of reminding us of rules, that he does not tell that samasa, he will not tell that a sentence. So when we read the sutras, we can get this doubt, why does sentence does not get a pratipadika sanya? Why supratyaya is not added to sitayaha vanam gacchati tyanantaram punaha supratyaha kimartam nasti ityadi prashnaha bhavitum arhanti. Tadrisha prashnanam uttaram panihi tatra, he will not give an explanation. Saha kim karoti ityukte nyapakam sthapayati. ज्ञापकं कथं स्थापयति, समासग्रहणं तत्र न करोति, अत्र कृतवान् इत्युक्ते तस्य अभिप्रायः एवमस्ति इति सर्वे व्याख्यानकर्तारः वदन्ति. भाष्यकारः तस्य आशयं ज्ञात्वा, पाणिनेः आशयं ज्ञात्वा महाभाष्ये प्रकटितवान्. तदनुसारं वृत्तिग्रन्थकर्तारः, लघुकौमुद्यादिकर्तारः ते लिखन्ति. इदानीं ज्ञातवान् ज्ञातवन्तः वा सुजाता भगिनी एकवारं पुनः वदति वा समासविषये सर्वे तदेव अन्तिमवाक्यस्य प्रातिपदिकसंज्ञावारणाय एव समासग्रहणम् अत्र कृतम् ग्रहणम् अत्र कृतम् विधीयते विधीयते yes yes how long it is okay correct correct प्रातिपदिकम् अस्ति किल कृत्तदि च समासश्च इत्यनेन प्रातिपदिकसंज्ञा अस्ति राम इत्यस्य पूर्वसूत्रेण न आगच्छति अस्मिन् अनेन सूत्रेण आगच्छति प्रातिपदिकसंज्ञा सी एनी इफ् यु गीव् अ संज्ञा टु अ पर्टिक्युलर् पदा इट् शुड् बि थ्रू अ सूत्र सो अत्र this instead of the first sutra you have to use the second sutra for giving pratyaka sanya to rama astu agre gachamah va ha idanim the first two sutras aham क्षमां याचे यतोहि अहं किञ्चित् वेगेन गतवान् इति इदानीम् अवगतवान् एतावत् सर्वम् उक्तवान् परन्तु किञ्चित् वेगेन गतवान् तद् कृपया क्षम्यताम् अग्रे गच्छामः श्रोजसमोच्छष्टाभ्यां बिस् गेभ्यां बिस् एतत् अत्र किमपि नास्ति एकपदात्मकं सूत्रमस्ति तत्र सन्धिच्छेदः अस्माभिः सम्यक् रीत्या करणीयः सु औ जस् इत्यत्र सु औ इत्यत्र उकारः औकारः अस्ति स्वौ जस् इति अभवत् एवं इदानीं प्रश्नं पृच्छामि कं पृच्छामि शारदा भगिनी अस्ति शारदा भगिनी इदानीं स्वौ जस् तत्र अस्मिन् सूत्रे के सन्धयः सन्ति स्वौ सु औ इत्यत्र स्वौ इति सञ्जातः कः सन्धिः तत्र विच् इस् अ सन्धि देर् सु स्वौजसमौट् इति अस्ति किल तत्र सूत्रं स्क्रीन् मध्ये अस्ति स्वौजसमौट् इत्यत्र स्वौज इति अस्ति स्वौज इत्यत्र तत्र पदच्छेदः सु औ इति क्रियते तत्र कः सन्धिः सन्धिः कः सु औ उकार सु औ इत्यत्र उकारः अस्ति उकार औकारयोः उकार औकारयोः कः सन्धिः कथं भगिनि तत्र उकारः इदानीम् इको यणचि इति अस्ति इक् वर्णः यञ्सन्धिः अस्ति यचोयवायावः अयादिसन्धि कृते येङः तत्र ये स्वर्णाः अपेक्षिताः लेफ्ट् हेण्ड् सैड् मध्ये ये ऐ ओ औ अपेक्षिताः ये ओ ऐ औ अपेक्षिताः अत्र उकारः अस्ति उकार औकारयोः యంగ్ సంధి. యంగ్ సంధి ఉకారస్య వకార కేవలం స్ వ స్వౌ ఏం స్వౌ ఇది ఆగతం. ఇదనీ ప్రథమ యంగ్ సంధి అస్తి ఇకో ఎనసి సౌజ. నెక్స్ట్ సౌజ సమౌట్ సౌజ సమౌట్ సమౌట్ చట్టాభ్యాం బిస్ ఔట్ ప్లస్ షస్ ఔట్ ఛష్ ఔట్ ఛట్ ఇది కహ సంధి. వదతు సుత్తసంధి సమీచీనం వా? సిద్ధాంతకౌమదీ నావశ్యకం ఏతస్య కృతే తత్ర షోటి షహ చహ అటి అస్తు ఛత్వ సంధి ఔట్ షస్ ఔట్ చష్ చష్. ఇదానీ సకారస్య టకారయోః ఔట్ చష్టాభ్యాం బిస్ షస్ ప్లస్ టా షస్ ఇత్యత్ర షకారస్య చకారః అభవత్. ఇదానీ ఛస్ ప్లస్ టా ఇది అస్తి ఛస్ ప్లస్ టా ఇత్యత్ర కిమ్ అభవత్ చష్టా ఇది అభవత్. కహ సంధి కహ సంధి సకార కహ సంధి సూత్రం వదతు. స్టుత్వం స్టుత్వం సూత్రం నాస్తి నాస్తి భగిని స్టునాష్టు కేవలం స్టునాష్టు సూత్రం స్తోహ ఇది అనువృత్తి అస్తి కేవలం స్టునాష్టు అస్తు. ఇదానీ స్టాభ్యాం అస్తి స్టాభ్యాం దిస్ నేభ్యాం వ్యస్ కిమపి నాస్తి తత్ర నసిభ్యాం వ్యస్ కిమపి నాస్తి నస్ ఓస్ ఆం కిమపి నాస్తి ఆం నీ నీ ఓస్ నీ ఓస్ ఇత్యత్ర కస్సంధి యంగ్ సంధి సమీచీనం. న్యోసుప్ నీ ఓస్ సుప్ ఇత్యత్ర న్యోసుప్. ఇదానీ పదచ్ఛేదః అవగతః వా? సు ఔజస్ అం ఔట్ షస్ తాభ్యాం బిస్ పదచ్ఛేదః సంధి. అస్మాభిః ఇదానీం కః సంధిః ఇతి ప్రశ్న పృచ్యతే చేత్ వయం సర్వే ఇదానీం సంధి ప్రకరణం జ్ఞాతవంతః. కః సంధి కః ఇతి ప్రశ్నే కృతే చేత్ సూత్రమేవ వక్తవ్యం, నతు యణ్ సంధిః అయాది సంధిః ఇత్యాది తు హైస్కూల్ మధ్యే వదంతి జనాః. సంధి కః ఇత్యత్ర ఎకో ఎణచి స్టునాష్టుః షోటి ఇత్యేవ అస్మాభిః వక్తవ్యం. అస్తు సుంగస్యోః ఇదానీం న్యంతాః ఇదానీం ఏతదనంతరం ప్రత్యయః పరశ్చ ఇతి అధికారాః సంతి. ఇదానీం ఏతే ఇదానీం ఏతస్య వివరణం కిమర్థం పాణిని కృతవాన్? సహ ప్రాతిపదిక సంజ్ఞా ఉక్తవాన్. ప్రాతిపదిక సంజ్ఞా అనంతరం ఏతత్ సూత్రం ఉక్తవాన్. ఏతస్య సూత్రస్య కథనస్య అభిప్రాయః ఏతే ప్రత్యయాః సంతి. కుత్ర కదా యుజ్యతే ఇతి ఇదానీం న తత్ర క్లారిటీ నాస్తి. అతః అస్మాభిః అధికారః కిమ్ అస్తి? ఇదం సూత్రం కుత్ర అస్తి? అష్టాధ్యాయ్యా చతుర్థపాదే చతుర్థాధ్యాయే ప్రథమపాదే అస్తి. ఇదానీం కే అధికారాః సంతి ఇతి పశ్యామః. ఇదానీం కస్య సకాశే అష్టాధ్యాయీ పుస్తకం అస్తి? सर्वेषां सकाशे अस्ति वा? अस्ति, आवश्यकम् अवश्यम्। तत्र इदानीं प्रत्ययः इति अधिकारः कुत्र अस्ति कृपया पश्यन्तु, 311 इति अस्ति, कृपया पश्यन्तु। परश्च इति अग्रिमसूत्रं 312 अस्ति। इदानीं 311 मध्ये इदानीं कः वदति? सुब्रह्मण्यमहोदय कृपया वदतु, 311 312 इति सूत्रद्वयम् अस्ति, तस्य पार्श्वे एका संख्या उल्लिखिता वर्तते, सा संख्या का? त्री वन टू परश्च। बै द सैड ऑफ प्रत्यय, प्रत्ययः इति सूत्रस्य पार्श्वे देर इज वन मोर नंबर, न तद् प्रत्ययः सूत्रं लब्धं वा? अष्टाध्यायी अस्ति वा? लब्धम्। अष्टाध्यायी पुस्तकमस्ति वा? पुस्तकं नास्ति वा? पुस्तकं नास्ति, अस्तु, पुस्तकम् अपेक्षितं, यतोहि अनुवृत्तिः कुत्र पर्यन्तं गच्छति इति पुस्तके एव भवति, न तु साफ्ट् कापि यद् मया प्रेषितं तत्र नास्ति। यस्य कस्य 54 160 this pratyayadhikara is like one big adhikara, it is like Uttar Pradesh, Madhya Pradesh, Maharashtra put together, it is like Central India or full, like pratyayadhikara is 3rd adhyaya, 4th adhyaya, 5th adhyaya, all 4 padas, which means 4 plus 4 8 plus 4 12 padas, pratyayadhikarah dvadasha padesu gacchati, adhikarah gacchati nama adhikara sutram kim karoti, prati sutre gatva pratyayah parascha, pratyayah parascha, pratyayah parascha, pratyayah parascha iti upavishati, upatishtati। तत्र किं करोति, तस्य कार्यमेव, यदि प्रत्ययः अस्ति चेत् तत्र विधानमस्ति चेत् परः विधीयते इति प्रत्ययः परश्च इति पञ्चमाध्यायपर्यन्तं प्रत्ययाधिकारः विद्यते, महाधिकारः एषः। प्रत्ययः परश्च इति महाधिकारः। इदानीं न्याप्रातिपदिकात् इति चतुर्थाध्याये अस्ति, कृपया तस्य तत्सूत्रं प्रति आगच्छन्तु, न्याप्रातिपदिकात् चतुर्थाध्याये प्रथमपादे प्रथमसूत्रम्। फोर् वन् वन् न्याप्रातिपदिकादित्यस्य सूत्रस्य अर्थः कः? न्याप्रातिपदिकादित्यत्र इदानीं प्रत्ययः परश्च, इदानीं प्रत्ययाधिकारः यः कोऽपि प्रत्ययः वा भवतु, धातुप्रत्ययः वा भवतु, तिङ्प्रत्ययः वा भवतु, तद्विधप्रत्ययः वा भवतु, कृत्प्रत्ययः वा भवतु, धातुसम्बन्धप्रत्ययः वा भवतु, यत्किमपि भवतु, तृतीयाध्यायादारभ्य पञ्चमाध्याय चतुर्थपाद अन्तिमसूत्रपर्यन्तं प्रत्याधिकारः अस्ति। इदानीं चतुर्थाध्याये संकोचः क्रियते, संकोचः नाम इट् इस् गेटिङ्ग् कन्सैस्ड्, फस्ट् थर्ड् चाप्टर् आफ् अष्टाध्यायी डील्स् वित् आल् दि धातु रिलेटेड् प्रत्ययास्, फोर्थ् चाप्टर् डील्स् वित् आल् प्रातिपदिका रिलेटेड् प्रत्ययास्, अत एव तत्र आरम्भे किम् उच्यते, ज्ञाप्रातिपदिकात् इति उच्यते। ज्ञाप्रातिपदिकात् नाम ञन्तात् आबन्तात् प्रातिपदिकाच्च ये किं के स्युः प्रत्ययाः स्युः, के ते प्रत्ययाः, उपरि उक्त सौजसमोच्चष्टाभ्यां बिस् एते प्रत्ययाः ञन्ताद्भवन्ति आबन्ताद्भवन्ति प्रातिपदिकाच्च भवन्ति। న్యంతాత్ నామ కిం ఆబంతాత్ నామ కిం అనంతరం పశ్యామః ఇదానీం అస్మాభిః న అధీతం తస్య విషయే తదనంతరం పశ్యామః స్త్రీ ప్రత్యయ విషయః సః తదనంతరం పశ్యామః ప్రాతిపదికాచ్చ పరే స్వాదయః ప్రత్యయః స్యుః కే స్వాదయః ఇదానీం మమ ప్రశ్నః కే స్వాదయః ఇదానీం గీతా పద్మనాభన్ తదేవ ఏతేవ స్వాదయః సమీచీనం ఏతేవ స్వాదయః ఇతి ఉచ్యతే ఏతేవ స్వాదయః ప్రత్యయాః ఇదానీం ఏతే స్వాదయః ప్రాతిపదికాత్ భవంతి కుత్ర భవంతి ఏతే ప్రత్యయాః సంతి ప్రత్యయాధికారః అస్తి పరస్య పరే భవంతి ప్రాతిపదికాత్ పరే భవంతి ఇదానీం అవగతం వా ఇదానీం సు ఔ జస్ ఇతి ప్రథమా విభక్తేః ప్రత్యయః తదనంతరం సుపః ఇతి సూత్రం వర్తతే సుపః ఇతి సూత్రం కిం వదతి విభాగం కరోతి ఇదానీం కిం భవతి రామ ఇతి ప్రాతిపదికం అస్తి అస్మాకం సమీపే రామ ఇతి ప్రాతిపదికం అస్తి తస్య ప్రాతిపదిక సంజ్ఞా కేన ఆగత కృతద్విత సమాసాశ్చ ఇతి సూత్రేణ ఆగతం ఇదానీం కిం భవతి ఏకవింశతి ప్రత్యయాః సుఔజ సమోక్ష సర్వే యుగపత్ కిం భవంతి రామశబ్దస్య సమీపే ఆగచ్చంతి మమ ఉపయోగం కరోతు మమ ఉపయోగం కరోతు అహమాగచ్చామి ఇది సరే సుఔజస్ సమోక్షస్ సర్వే ప్రత్యయాః అహమాగచ్చామి ఇది సర్వే ఆగచ్చంతి తదా రామశబ్దః తదా తత్ర వాక్యకర్త వాక్యస్య ప్రయోగం యః కరోతి సః కిం వదతి సః కిం కరోతి వివక్షాధీనత్వం సః స్థాపయతి ఇదానీం అహం ఏకవచనే రామస్య ప్రయోగం కర్తుమిచ్చామి తత్ర ప్రథమా విభక్తో ప్రయోగం కర్తుమిచ్చామి ఇది సః విభాగం కరోతి ఏవం సుపః ఇతి పదం తత్ర ఏకవింశతి ప్రత్యయానాం త్రీణి త్రీణి విభాగరు తత్ర విభాగత్రయం ఏకవచన ద్వివచన బహువచన విభాగం కృత్వా సప్త విభక్తీనాం విభాగం అపి కరోతి సుపః ఇతి సూత్రం అవగతం వా సో సుపః డజంట్ డూ ఎనీథింగ్ విభాగం కరోతి సు ఔజస్ కుత్ర కుత్ర గంతవ్యం ఇతి విభాగం కరోతి సు ఔజస్ ఇతి ప్రథమా విభక్తేః ప్రత్యయాః అమ్ ఔజస్ ఇతి ద్వితీయా టాభ్యాం బ్యస్ ఇతి తృతీయా న్యేభ్యాం బ్యస్ ఇతి చతుర్థీ న్యస్భ్యాం బ్యస్ సారీ న్యసిభ్యాం బ్యస్ ఇతి పంచమీ నస్సోసాం ఇతి షష్ఠీ నియోసుప్ ఇతి సప్తమీ ఇతి వదతి ఇదానీం ఏకవచనం నామ కిం ద్వివచనం నామ కిం బహువచనం నామ కిం ఇత్యుక్తే ద్వేకయోర్ ద్వివచనేకవచనే ఇది సూత్రం కిం వదతి యది ద్విత్వ వివక్ష అస్తి ద్వివచనం ఉపయోగ క్రియతే ఏకత్వ వివక్ష అస్తి ఏకవచనం ఉపయోగ క్రియతే ఏవం సర్వే సుప్రత్యయా ఆగతాః ఇదానీం ఏతేషాం సుప్రత్యయానాం తాదృశ ఏవ యోగః భవతి వా ఇతి ప్రశ్నే కృతే కిం భవతి సుప్రత్యయానాం ఇత్సంజ్ఞాపి విధీయతే కదాచిత్ ఇదానీం హలంత్యం ఉపదేశే అజననాసికైత్ ఇత్యాది సూత్రాణాం పరిచయః తు అస్తి అస్మాకం ఏవం సు ఇత్యత్ర సుప్రత్యయః తత్ర ఉపదేశః అస్తి తత్ర అచ్ అస్తి అనునాసికః అస్తి అతః ఉకారస్య ఇత్సంజ్ఞా అస్తి ఏవం సు ఇతి భవతి అత్ర పశ్యంతు అనుబంధ వినిర్ముక్తాః సుప్రత్యయాః సు ఇతి భవతి ఏమేవ ద్వివచన ప్రత్యయ సు ఔ జస్ ఔ ఇత్యేవ భవతి జస్ ఇత్యత్ర అస్తి ఇతి భవతి తద అనంతరం పశ్యామః కేన సూత్రేణ ఇది అమ్ ఔషస్ ఆ టా ఇత్యత్ర ఆభ్యాం బిస్ నే ఇత్యత్ర ఏభ్యాం బ్యస్ నసి ఇత్యత్ర అస్భ్యాం బ్యస్ నస్ ఇత్యత్ర అసోసాం నీ ఇత్యత్ర ఈ ఓ సుప్ ఇతి సుప్ ఇత్యత్ర సు ఇతి భవతి ఏవం అనుబంధ, అనుబంధ నామ ఇత్సంజ్ఞకా, అనుబంధ వినిర్ముక్తా సుప్రత్యయాః ఏవం భవంతి. స్ ఔ జస్, అం ఔ ష అస్ ఇత్యాదయః. అవగతం వా? హా, ఇదానీం రామశబ్దస్య రూపాణి పశ్యామః. రామః రామో రామాః, రామం రామో రామాన్, తత్తు వయం జానీమః. ఇదానీం అగ్రే గచ్చామః రామశబ్దస్య ప్రక్రియా విషయ. ఇదానీం రామ ఇది కృదంత శబ్దః, ఏతస్య ప్రక్రియా నాపేక్షితం. రామ ఇది కృదంత శబ్దః. ఇదానీం రామ ఇత్యస్య సు ఇది ప్రథమా విభక్తి ఏకవచన వివక్షాయాం సు ఇది భవతి. తత్ర ఉపదేశే అజనునాసిక ఇత్యనేన సు ఇత్యత్ర సు ఉ ఇతి అస్తి, ఉకారస్య లోపః, తస్య లోపః ఇత్యనేన లోపః. రామస్ ఇతి జా స్థితే తదనంతరం ససజుషో రుహు, ససజుషో రుహు ఇత్యస్య సూత్రార్థః కః? ససజుషో రుహు ఇత్యస్య సూత్రార్థః కః? దృష్ట్వా వదతు. ఋత్వం భవతి, ఋత్వం భవతి. అత్ర సకారః అస్తి, అతః సకారస్య ఋత్వం ఆగతం. తేనైవ సూత్రేణ ఋత్వం ఆగతం. ఇదానీం ఋత్వస్య, ఋత్వే ఉకారః యదస్తి తస్య పునః ఉపదేశే అనునాసిక ఇత్ ఇత్యనేన ఇత్సంజ్ఞ, ఉత్వస్య ఇత్సంజ్ఞ, అనంతరం తస్య లోపః ఇత్యనేన తస్యాపి లోపః భవతి. ఏవం ఋత్వం ఋ ఇతి సంజాతం. తదనంతరం ఖరవసానయోర్ విసర్జనీయః ఇత్యస్య సూత్రార్థః కః? రకారస్య స్థానే విసర్గః భవతి రేఫస్, అవసానే, అవసానే విరా, అవసానే స్థితస్య రేఫస్య, అవసానే స్థితః అవసా విరా, అవసానం నామ కిం? విరామో అవసానం, విరామః అవసానం ఇతి ఉచ్యతే. అంతిమ యత్ర అస్మాకం, యత్ర అస్మాకం ఉచ్చారణస్య విరామం, విరామః భవతి సయేవ అవసానం ఇతి ఉచ్యతే. అతః రేఫస్య విసర్గః. ఏవం ప్రథమా విభక్తి రామః ఇతి రూపనిష్పత్తిః. అవగతం వా? అవగతం. ఇదానీం ద్వితీయ రామౌ ఇతి ఇత్యత్ర కిం భవతి? తత్ర కిం ఏక, ఇదానీం రామ రామౌ ఇతి అస్తి, అస్మాభిః ఉక్తం ద్వేకయోర్ ద్వివచనైకవచనే ఇతి. ద్వివచన వివక్షాయాం ద్వివార, ఇదానీం ద్వౌ రామౌ స్తః. ఇదానీం ఏకః రామః దశరథపుత్రః రామః, ఏకః బలరామః అస్తి, కృష్ణస్య అగ్రజః బలరామః అస్తి. ఇదానీం రామౌ ద్వౌ స్తః. బలరామః బలరామమపి ఏకదేశత్వేన వయం రామ ఇత్యేవ వదామః, దశరథపుత్రరామస్యపి రామం వదామః. ఏతౌ ద్వౌ ఆగచ్చతః తదా అస్మాభిః రామౌ ఇతి ద్విత్వ వివక్షాయాం కిం కరణీయం ఇత్యుక్తే ఏకస్య రామః, ఏకః రామః దశరథపుత్రః రామః, తస్యాపి ప్రాతిపదికసంజ్ఞా అస్తి, బలరామస్యాపి ప్రాతిపదికసంజ్ఞా అస్తి. ఇదానీం ఉభయోః సుప్రత్యయः అపేక్షితః. ఏవం రామ సు, రామ సు ఇతి పునః ఏవం ద్వివారం ద్వివారం ఏవం కర్తవ్యం వా ఇతి ప్రశ్నే కృతే సరూపాణాం ఏకశేష ఏకవిభక్తౌ ఇతి సూత్రం సహాయం కరోతి. తత్ సరూపాణాం ఏకశేష ఏకవిభక్తౌ ఇత్యత్ర పదత్రయమస్తి. సరూపాణాం ఏకశేష ఏకవిభక్తౌ, ఏకవిభక్తౌ యాని సరూపాణి దృష్టాని, ఏకస్యామేవ విభక్తౌ, సారీ ఏకస్యామేవ విభక్తౌ యది సరూపాణి భవంతి. సరూపాణి నామ రూపం, నామ కేవలం రూపం న అర్థసహితం. ఇదానీం బలరామః అపి రామః ఏవ, సరూపాణి దృష్టాని తేషాం ఏక ఏవ శిష్యతే, తేషాం ఏక ఏవ శిష్యతే. ఏక ఏవ శిష్యతే నామ ఏకశేష నామ రామ రామ ఇత్యత్ర शब्द द्वयस्यापि सुप्रत्यय योगः अस्माभिः न क्रियते। रामासु रामासु अनन्तरं रामः रामौ 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 इत्यादि न क्रियते अस्माभिः। अस्माभिः एक एव रामशब्दस्य औ प्रत्ययः क्रियते। तद् एक एव रामशब्दः कथम् आगतम् इत्युक्ते, प्रथमम् अस्माभिः उच्चारणं करणीयं, राम राम इति उच्चारणं करणीयम्। द्वित्वविवक्षा अस्ति अस्माकं, द्वित्वविवक्षा अस्ति चेत् राम राम इति वक्तव्यं। यदा उच्यते तदा स्वरूपाणामेकशेषविभक्तौ आगच्छति। इदानीम् अस्माभिः किं क्रियते, राम राम इति द्विवारम् उक्त्वा प्रथमरामस्य सुप्रत्ययः द्वितीयरामस्यापि सुप्रत्ययः विधीयते, तदा स्वरूपाणामेकशेष एकविभक्तौ आगच्छति। आगत्य वदति यदि एकविभक्तौ यदि स्वरूपाणि सन्ति तर्हि एकः एव शिष्यते, भवता द्विवारं न वक्तव्यम्, एकवारमेव वदतु, राम इत्येव वदतु। तर्हि द्विवारम् उक्त्वा द्विवचनस्य प्रत्ययं योजयतु, द्विवारम् अनुक्त्वा द्विवचनप्रत्ययं योजयतु, एकवारं वदतु परन्तु द्विवचनप्रत्ययं योजयतु। राम इति राम राम इति मा वदतु, राम इत्येव वदतु परन्तु द्विवचनप्रत्ययं योजयतु, राम औ इति। इदानीम् अवगतं वा? एवं किं जातं, राम राम इति राम राम इत्यस्य राम औ इति जातम्। राम औ इत्यत्र अकारः अस्ति, औकारः अस्ति। इदानीं प्रश्नः आगच्छति, अत्र आ औकारः अस्ति चेत् वृद्धिसन्धिः रामौ इति अस्माभिः कर्तुं शक्यते स्म, परन्तु अत्र प्रथमयोः पूर्वसवर्णः इति एकं सूत्रम् अस्ति। प्रथमयोः पूर्वसवर्णः किं वदति, यदि प्रथमाद्वितीययोः अक् अस्ति, असि परकत्वम् अस्ति, पूर्वसवर्णदीर्घः भवति। एवं पूर्वसवर्णदीर्घः नाम किं, राम औ, पूर्ववर्णः अ अकारः, अकारस्य दीर्घः नाम राम रामा इति, अकार औकारयोः रामा इति भवितव्यम्। एवं रामा इति स्थान रामा इति न भवति, परन्तु पूर्वप्रथमयोः पूर्वसवर्णः इति सूत्रम् अकः, तत्र अकः प्रथमाद्वितीययोः अचिपरे पूर्वसवर्णदीर्घः आदेशः भवति इति वदति। इदानीं सूत्रस्य प्राप्तिः तु अस्त्येव, तदनन्तरं नादिचि इति एकं सूत्रं निषेधसूत्रमस्ति। यदि इच्वर्णाः सन्ति, अवर्णात् इच्वर्णाः सन्ति इचि परे, नादिचि इति सूत्रं किं करोति, अवर्णादिचि परे न पूर्वसवर्णदीर्घः इति निषेधं करोति। पूर्वसवर्णस्य दीर्घः प्राप्तिः अस्ति। इदानीं किं भवति, प्रथमं राम औ इति स्थिते वृत्तिसन्धिः आगच्छति, वृत्तिरेचि इति आगत्य वृत्तिसन्धिः तत्र कार्यं कर्तुम् इच्छति, तदा प्रथमयोः पूर्वसवर्णः आगत्य वदति, हे मम कार्यमस्ति, प्रथमाभक्तिः अस्ति अत्र, एतद् मम कार्यमस्ति, अत्र अहं कार्यं करोमि, न अहं मम कार्यमपि अस्ति इति वृद्धिसन्धिः वदति, तदा प्रथमयोः पूर्वसवर्णति अहं परसूत्रं, मम एव प्राबल्यं, भवान् तत्रैव उपविशतु इति आगच्छति। तदा नादिचि इति एकं सूत्रम् आगच्छति, नादिचि इति सूत्रम् आगत्य किं प्रथमयोः पूर्वसवर्णं दृष्ट्वा वदति, यत् इदानीम् अवर्णः अस्ति, इच् परकत्वम् अस्ति, अतः अत्र भवता न गन्तव्यम् इति नादिचि इति सूत्रं प्रथमयोः पूर्वसवर्णः इति सूत्रं वारयति अत्र कार्यं कर्तुं। तदनन्तरं किं भवति, वृद्धिसन्धिः किं करोति, यद् अस्तु एतेन वारितः तर्हि मम एव कार्यम् इति रामौ इति वृत्तिसन्धिः कार्यं कृत्वा अग्रे गच्छति। इदानीम् अवगतं वा, रामौ इति वृद्धि प्रथमम् प्रक्रिया एवम् अस्ति, राम राम इति प्रथमम् आगच्छति, स्वरूपाणाम् एकशेष एकविभक्तौ इति सूत्रेण एकः रामः एव शिष्यते, ततः परं कृत्तदिदसमासाश्च इति रामशब्दस्य प्रातिपदिकसंज्ञा, तदनन्तरं सु औजस् इत्यादयः एकविंशतिप्रत्ययाः युगपत् आगमिष्यन्ति, तदनन्तरं विभागः विभागः प्रथमाविभक्ति द्वित्वविवक्षायाम् अस्माभिः औ इति प्रत्ययः स्वीक्रियते. औ इति प्रत्ययस्वीकारानन्तरम् युगपत् वृद्धिरेचि प्रथमयोः पूर्वसवर्णः इति युगपत् सूत्रद्वयस्य प्राप्तिः. प्रथमयोः पूर्वसवर्णः वृद्धिसन्धिसूत्रम् दृष्ट्वा वृद्धिरेचि इति सूत्रम् दृष्ट्वा वदति, अहम् परसूत्रम् अस्मि, अतः मम एव प्राबल्यम् अस्ति विप्रतिषेधे परम् कार्यम् इत्यनेन. सः किं करोति, अहं कार्यं करोमि इति अग्रे गच्छन्नेव धावन्नेव अस्ति. तदा नादिचि इति सूत्रम् आगत्य प्रथमयोः पूर्वसवर्ण सवर्ण इति सूत्रं दृष्ट्वा वदति, तव कार्यम् अत्र नास्ति, यतोहि अवर्णात् अचिपरे पूर्वसवर्णदीर्घः, इचिपरे पूर्वसवर्णदीर्घः नास्ति, तत्र औ इति इच्वर्णः अस्ति, अतः अकारात् परम् इच्वर्णः अस्ति, अतः निषेधः अस्ति. एवं निषेधे प्राप्ते वृद्धिसन्धिः किं करोति, मम कोऽपि मां वारयितुं कोऽपि नास्ति, अतः अहमेव कार्यं करोमि इति वृद्धिसन्धिसूत्रं कार्यं कृत्वा रामौ इति रूपनिष्पत्तिः भवति. तदनन्तरं बहुत्वविवक्षायां बहुवचनम् इति अस्ति. चुटु इति अग्रिमसूत्रं सु औ जस् इत्यत्र जस् इति अस्ति प्रत्ययः. राम 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 इति आगच्छति, तदनन्तरं स्वरूपाणामेकशेष एकविभक्तौ इति एक एव रामः शिष्यते. तदनन्तरं प्रथमाविभक्ति बहुत्वविवक्षायां जस् इति प्रत्ययः आगच्छति. जस् इत्यत्र चुटु इत्यनेन जकारस्य इत्संज्ञा. चुटु इति सूत्रं किं वदति, प्रत्ययाद्यौ चुटु इत्संज्ञौ स्तः. प्रत्ययादिः भवेत्, जकारः प्रत्ययादिः अस्ति, अतः जकारस्य इत्संज्ञा अनेन प्राप्यते. एवं जस् इत्यस्य अस्तित्येव भवति. अवगतं वा? पुनरेकवारम् अहम् एकं कार्यं करोमि, एतस्य विवरणम् अग्रिमकक्षायां स्वीकरोमि, यतोहि समयः अतीतः. चुटु इति रामशब्दस्य बहुवचनरूपम् अग्रिमकक्षायां स्वीकरोमि. अस्तु, अस्य कक्षायाः राम 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 अस्य कक्षायाः नोट्स् किमपि अप्लोड् न भवति, केवलम् आडियो अथवा पुनः अप्लोड् करोमि, एतदेव पुनः अप्लोड् करोमि, पुनः आडियो स्थापयामि. यतोहि तत्र आडियो अस्ति चेत्, नोट्स् नास्ति चेत् सर्वे नोट्स् कुत्र इति अनन्तरं पृच्छन्ति, अतः पुनः एतदेव क्लास् 39 एव रिविजन् इति पुनः स्थापयामि. अस्तु, येनाक्षरसमां नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्. शुभरात्रि सर्वेषाम्.